एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा सर्वकारेण गतवर्षस्य भाद्रमासस्य त्रयोविंशे चतुर्विंशे च दिवसयोः सम्भूतस्य जिन्जीवान्दोलनस्य क्रमे आहतै हुतात्म परिवाराणां सदस्यैश्च सह सम्भूतानां संविधानां क्रियान्वयनाय सहजीकरण समितिः संघटिता अस्ति। प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य आयोजिते पत्रकार सम्मेलने प्रवक्ता हेमराज अर्यालः प्रधानमन्त्री मन्त्री परिषदः कार्यालयस्य सहसचिवस्य संयोजकत्वे संघटितया जन्जी संविधायाः एकीकृत योजना क्रियान्वयन समन्वय सहजीकरण समित्या सर्वकारस्य आन्दोलनकारिणाश्च मध्ये विहितानां संविधानां क्रियान्वयनाय समन्वयाय च मुख्य भूमिका निर्वक्ष्यते इति असूचयत्। नेपाल सर्वकारस्य जन्जी प्रतिनिधिनाश्च मध्ये गतवर्षस्य मार्गशीर्ष मासस्य चतुर्विंशे दिवसे सम्भूतायाः संविधायाः एतद् विक्रमवर्षस्य आषाढमासस्य अष्टादशे दिवसे उपविष्टेन मन्त्रिपरिषदः उपवेशेन स्वीकृतायाः एकीकृत योजनायाश्च क्रियान्वयनम् अस्या समिते मुख्यं दायित्वं निर्धारितमस्ति। समित्या योजनायाः क्रियान्वयनाय विभिन्नेषु मन्त्रालयेषु पारस्परिकः समन्वयो विधास्यते। रौतहट जनपदात् बोलबम यात्रायाः कृते भारतस्य झारखण्डवर्तिनि देवघरस्थाने तीर्थयात्रायै गतस्य बसयानस्य दुर्घटनायां त्रयो जनाः मृताः सन्ति। दुर्घटनायां रौतहट जनपदस्य गरुडा नगरपालिकायाः षष्ठोडा क्षेत्रस्य पछिहाई स्थानस्य षष्ठीवर्षीयो नवल जयसवाल तस्य पत्नी दशवर्षीय शिवम महतो च मृताः सन्तीति भारतीय संचार माध्यमैर्ज्ञापितं वर्तते। दुर्घटनायाम् अष्टौ जनाः आहताः वर्तन्ते। आहतानाम् अवस्था गभीरा अस्तीति च ज्ञापितमस्ति। गत रविवासरे पोठियाई स्थानात् पञ्चचत्वारिंशत् तीर्थयात्रिणः शिवभक्ताः भारतस्य वैद्यनाथ धाम्नः कृते प्रस्थिताः आसन्। वासुकीनाथस्य दर्शनं विधाय देवघरस्थानात् राजगीरस्थानं प्रति प्रस्थानस्य क्रमे ह्य शुक्रवास सरे प्रातः त्रिवादने झारखण्ड राज्यस्य कोडर जनपदस्य सद्गावा क्षेत्रे बसयानस्य ट्रकयानस्य च संघर्षेण दुर्घटना दुरापन्नेति ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य नेतृभिः लोकतन्त्रस्य सुदृढीकरणाय नेपाली कांग्रेस दलस्य एकतायां बलं दत्तमस्ति। कांग्रेस दलस्य संस्थापने तरपक्षस्य राष्ट्रिय मेलायाः उद्घाटन समारोहं सम्बोध्य नेतृभिः देशे विद्यमानस्य संकटस्य राष्ट्रियतायां समाहोयस्य च अवस्थायाः समाधानाय कांग्रेस दलस्य एकतायै बलं दत्तं वर्तते। समारोहे पूर्वसह महामन्त्री डा प्रकाश शरण महत एनपी साउद रमेश लेखकः वीरबहादुर बलायरः मोहन बस्नेतः उमाकान्त चौधरी भीमसेन दास प्रधान प्रभृतयो नेतारः सर्वेषां सदस्यानां सहभागितायां दलस्य पञ्चदशतमं महाधिवेशनं करणीयमिति धारणां व्यक्तवन्तः। कांग्रेस दलस्य संस्थापने पक्षस्य त्रिदिवसात्मकं मेलापकं ह्यस्तन दिवसात् प्रारब्धम् अस्ति। अद्य श्वश्च अन्तरसत्रं भविष्यति इति प्रचार प्रसार समितेः संयोजकः मीनबहादुर विश्वकर्मा अज्ञापयत्। सुदूरपश्चिम प्रदेशस्य मुख्यमन्त्रीपदे नेकपा दलस्य संसदीय दलस्य नेता खगराज भट्टः नियुक्तोऽस्ति। प्रदेश प्रमुखेण नजीर मिया इत्यनेन भट्ट ह्यो मुख्यमन्त्रीपदे नियुक्तोऽस्ति। ह्य प्रदेश प्रमुखस्य कार्यालये आयोजिते शपथ ग्रहण समारोहे प्रदेश प्रमुखेण मिया इत्यनेन मुख्यमन्त्री भट्टः पद गोपनीयतयोः शपथेन प्रतिज्ञापितः। नवनियुक्तेन मुख्यमन्त्रिणा भट्ट इत्यनेन ह्य एव मन्त्री परिषद विस्तारिता अस्ति। मुख्यमन्त्री भट्टः नेकपा एमाले दलस्य त्रीन् मन्त्रिणः एकं राज्यमन्त्रिणं च नियुज्य मन्त्रिपरिषदं विस्तारितवान् वर्तते। नवनियुक्तेषु मन्त्रिषु आर्थिक विषय मन्त्रीपदे चक्रबहादुर मल्ल, सामाजिक विकास मन्त्रीपदे सन्तोष शर्मा, भूमि व्यवस्था कृषि सहकारी मन्त्रीपदे दमन बहादुर भण्डारी, आर्थिक विषय राज्य मन्त्रीपदे जानकी अयरबम च वर्तन्ते। सुदूरपश्चिम प्रदेशे नेपाली कम्युनिष्ट दलस्य नेकपा एमाले दलस्य च मध्ये सत्ता समीकरणं सम्भूतमस्ति। अत्रान्तरे प्रदेश प्रमुख मिया हि एव नवनियुक्तान् मन्त्रिणश्च पदगोपनीयतयोः शपथम् अग्राहयत्। अत्रान्तरे बागमती प्रदेशसभायाः उपवेशः भाद्रमासस्य प्रथमे दिवसे अवस्था हिटुडावर्तिना प्रदेशसभा सचिवालयेन सूचनां प्रकाश्य दिवा एकवादनाय उपवेशः आहूतोऽस्ति। सर्वकारस्य प्रवक्ता शिक्षा खेलकूद मन्त्री सस्मिता पोखरेलः निगदति सर्वकारीय सूचना प्रवाह अतिरिक्तं व्यवस्थितः सरलः प्रभावकारी च विधास्यते। शिक्षा खेल पूर्व मन्त्रालय विभिन्ना संचार माध्यमानाम सम्पादकै प्रतिनिधिभिश्च सह सम्भूते विमर्शने मन्त्री पोखरेल सर्वकारस्य सर्वाणि कार्याणि लोकतान्त्रिक मूल्यस्य मान्यतायाश्च अनुसारेणैव भवन्ति इति समस्पष्टयत्। मन्त्री पोखरेल अवोचत् जनानां दैनिक आवश्यकतां केन्द्रे संस्थाप्य सुशासनं पारदर्शिता च सर्वकारेण प्राथमिकतायां स्थापिते वर्तेते। विश्वविद्यालयानां पदाधिकारिणां नियुक्तिः पारदर्शितया निष्पक्षतया च विहितास्तीति चर्चयन् मन्त्री पोखरेलः विश्वविद्यालयेभ्य स्वायत्ततां प्रदातुं शैक्षिक गुणस्तरम् अभिवर्धयितुं शिक्षाक्षेत्रे सुसमय सापेक्षं नीतिगतं सुधारं कर्तुं च मन्त्रालयः केन्द्रितोऽस्तीति प्रावोचत्। विमर्शने सहभागिभिः सम्पादकैः प्रतिनिधिभिश्च सर्वकारीय सूचना प्रवाहं पारदर्शिनं सहजं प्रभावपूर्णं च विधाय सर्वकारस्य संचार माध्यमानां च सम्बन्धः सुदृढो विधातव्य इत्यत्र बलं दत्तमासीत्। सूचना संचार मन्त्री डॉ विक्रम तिमिलसिन्हा दूरसंचार सेवाया विस्तारेण सहैव गुणस्तरस्य सुधारस्य कार्यं प्राथमिकतायां संस्थाप्य कार्यं कर्तुं सम्बद्धान् निकायान् निर्देशति। संचार मन्त्रालये नेपाल दूरसंचार प्राधिकरणस्य प्रतिनिधिभिः नेपाल टेलिकम इति दूरसंचार संस्थाया प्रतिनिधिभिश्च सह सम्भूते विमर्शने मन्त्री डॉ तिमिलसिन्हा दूरभाषस्य इन्टरनेट इति सञ्जालस्य च सेवा गुणस्तरहीनास्तीति नागरिकाणां वेदना प्राप्यमाणास्तीति चर्चयन् सेवा विस्तारे गुणस्तर सुधारे च नियामक निकायेन सेवा प्रदायकेन च गभीरतया परिणाममुखतया च कार्यं करणीयम् इति च प्रावोचत्। काठमाण्डु विश्वविद्यालयस्य उपकुलपति पदे प्राध्यापक डॉ विवेक बराल नियुक्तोऽस्ति। प्रधानमन्त्रिणा विश्वविद्यालयस्य कुलपतिना च बालेन्द्र साहेन उपकुलपति चयन परामर्शन समितेः परामर्शानुसारेण बराल उपकुलपति पदे नियुक्तोऽस्ति। शिक्षा खेलकूद मन्त्रिणा सस्मित पोखरेलेन यो मन्त्रालये नवनियुक्ताय उपकुलपतये नियुक्ति पत्रं प्रदत्तमस्ति। सहप्राध्यापकेन डॉ प्रकाश तिवारिणा लिखित शब्दशास्त्र विज्ञानम् इत्याख्यो ग्रन्थ लोकार्पितोऽस्ति। नेपाल संस्कृत विश्वविद्यालयस्य व्याकरण विषय समितेः आयोजनायां पूर्वेद्युः काष्ठमण्डपस्य वाल्मीकि विद्यापीठे आयोजिते कार्यक्रमे देवघट्टस्य हरिहर संन्यासाश्रमस्य पीठाधीशस्य ज्ञानानन्द सरस्वती स्वामिनः प्रमुखातिथ्येः सम्पन्ने कार्यक्रमे भाषाविद् प्राध्यापकः डॉ माधव प्रसाद पोखरेलः प्राध्यापकः डॉ अच्युत प्रसाद प्राध्यापक अच्युत प्रसाद लामिछाने प्राध्यापक डॉ जीवन अधिकारी सहप्राध्यापक डॉ केशव शरण अर्यालश्च संस्कृत व्याकरणस्य भाषा विज्ञानस्य च अध्येतॄणां कृते पुस्तकमिदं उपयोगी वर्तते इति धारणां व्यक्तवन्तः।